आयाय सुषमाहित इन्द्र सोमम् विबा इमाम् एदम् बर्हिः सदो मम आत्वा ब्रह्मयुजा हरे महतामिन्द्रकेशिना उपब्रह्माणि न शृणु ब्रह्माणस्त्वा भजम् युजा सोमपामिन्द्र सोमिनाः सुदावन्तो हवामहे आनो जाहि सुदावतोऽस्माकम् सुष्ठुतेरुप पिबासुषि प्रन्नन्धसः आते सिञ्चामि कुक्षारनुगात्राभिधावतो गृभाय जिह्वजा मधु स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे एतव सोमश्रमस्तु ते हृदे अजमुत्वा विदर्शने जनीरिवाभिसंवृतः प्रसोम इन्द्रसर्पतो तुभिग्रीवो वपोदरस्व बाहुरन्धसोमदे इन्द्रो वृत्राणि जिघ्नदे इन्द्रप्रेहि पुरस्त्वम् विश्वस्येषा न ओजसा वृत्राणि वृत्रहञ्जहि दीर्घस्ते अस्त्वङ्कुशोजेनावस प्रयच्छसि यजमानाय सुन्वते अयन्त इन्द्रसोमानिपोतो अधिबर्हिषि एहीमस्यत्र पापिव शाचिको शाचिपो जनायम् मृणायते सुतः आखण्डलप्रहूयसे यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्याः न्यस्मिन्दध्र आमनाः वास्तोष्पदे ध्रुवास्थूणाम् सत्रम् सौम्यानाम् द्रप्सो भेत्ता पुराम् शश्वतीनामिन्द्रो मुनीनाम् सखा प्रदा कुसानुर्यजतो गवेषण एकः सन्नभिभोजसः भोर्णिमश्वन्नयत्तु चापुरो गृभेन्द्रम् सोमस्य पीतजे